अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। पूर्वोत्तर राज्येषु जलौघस्थितिः प्रवर्तमाना विद्यते। प्रधानमन्त्री नरेन्द्र मोदी असम सिक्किम राज्ययोः मुख्यमन्त्रिभ्यां मणिपुरस्य राज्यपालेन च सह वार्तालापं विधाय परिस्थितिं समीक्षितवान्। सहायस्य पुनर्वासस्य च कृते पूर्णसहायतायाः आश्वासनं च प्रदत्तवान्। असमप्रदेशे गभीरा जलौघस्थितिः प्रवर्तमाना विद्यते। सममेव राज्यस्य केषुचित् क्षेत्रेषु जलस्तरः वर्धमानः दृश्यते। सप्तदश जनपदेषु प्रायः चतुर्लक्षजनाः जलौघात् पीडिताः। असमराज्य आपदा प्रबन्धन प्राधिकरणानुसारं राज्ये जलौघ भूस्खलनयोः कारणात् मृतकानां संख्या वर्धयति। एतदतिरिच्य अरुणाचलप्रदेशे च अविरतं वृष्टिः वर्षति। केन्द्रेण दश जनपदेषु नारंगीय संचेतना अपि च चतुर्दश जनपदेषु पीत संचेतना उद्घोषिता। सिक्किमस्य मंगन जनपदस्य चातेन क्षेत्रे अपि निरन्तरं वृष्टिः वर्षति, येन भूस्खलनम् अभवत्, अपि च सैन्य शिविराणि दुष्प्रभावितानि। ऋतुविज्ञान विभागेन असम मेघालय नागालैंड मणिपुर मिजोरम त्रिपुरा च राज्येषु अतिवृष्टेः संभावना प्रकटिता। भाजपेति दलेन लोकसभायां विपक्षीय दलस्य आलोचना विहिता, यतो हि राहुल गांधी सिन्दूराभियानं न्यूनत्वेन स्वीकृतवान्। भाजपेति दलस्य सांसदः संबित पात्रा एकस्मिन् सामाजिक अन्तर्जालीय पटले राहुल गांधेः आलोचनाम् अकरोत्। सममेव उक्तवान् यत् एतत् कार्यं भारतीय सैन्य बलानाम् अपमानं वर्तते, सममेव देशस्य अपमानं च वर्तते। ह्यः भोपाले एकस्मिन् कार्यक्रमावधौ कांग्रेस इति दलस्य सांसदः राहुल गांधी वर्यस्य टिप्पण्यां प्रतिक्रियां यच्छन् श्री पात्रा अवोचत् यत् एतादृशी टिप्पणी कस्यापि सभ्य राजनेतुः कृते विपक्षीय दलस्य नेतुः कृते शोभां न यच्छति।
राहुल गांधी ने मध्य प्रदेश में अपने एक भाषण के दौरान न केवल ऑपरेशन सिंदूर अपितु भारत के सेना और भारतवर्ष का घोर अपमान किया है। जिस प्रकार से, जिस लहजे से ऑपरेशन सिंदूर के विषय में राहुल गांधी ने बात किया, वह किसी भी सभ्य राजनेता, वह किसी भी लीडर ऑफ ऑपोजिशन या किसी भी पॉलिटिशियन को न केवल शोभा नहीं देता, अपितु वो पॉलिटिशियन फिट ही नहीं हो सकता है जो अपने देश के लिए, जो अपनी मातृभूमि के लिए सरेंडर जैसे शब्द का प्रयोग कर।
महाराष्ट्रे ग्रामीण आवासं प्रवर्धयितुं केन्द्र प्रशासनेन वित्तीय वर्ष 25-2000 26-2000 वर्षयोः कृते प्रधानमन्त्री आवास योजना ग्रामीण PMAYG इत्यस्य अन्तर्गतं राज्येभ्यः 750-900-10,00,000 गृहाणां कृते अनुमतिः प्रदत्ता। महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्र फडणवीसः एकस्मिन् सामाजिकान्तर्जालीय पटले सन्देशोऽयं प्रदत्तवान्। अपि च प्रधानमन्त्री नरेन्द्र मोदिनः, केन्द्रीय ग्रामीण विकास मन्त्रिणः शिवराज सिंह चौहानस्य च तेषां अविरतं समर्थनाय धन्यवाद ज्ञापनम् अकरोत्। IPL 20-20 क्रिकेट क्रीडा स्पर्धा मालिकायां रॉयल चैलेंजर्स बेंगलुरु दलं प्रथमवारं विजयम् अवाप्नोत्। अनेन दलेन गतरात्रौ अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे पंजाब किंग्स दलं 6 अंकैः पराजितम्।
I think for me it's a great opportunity, you know, to do captaincy under him, and it was a great learning for me. And as I said, I think he deserved more than anyone else. Virat Kohli and all the fans, and after that I think everyone who has supported the management, support staff, coaching staff, I think the way they have supported every player, I think that was beautiful. I just want to say one line for the fans, E Sala Cup Nandu.
अवसरेऽस्मिन् RCB प्रमुखः रजतः पाटीदार सर्वेभ्यः समर्थकेभ्यः कार्तज्ञ वचांसि अयच्छत् इति वार्ताः।